इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः पुरुषोत्तम शर्मा। आदौ मुख्य वार्ताः। केन्द्र प्रशासनेन आगामि विपणन सत्राय शीतकालिक सस्यानां एमएसपी इति न्यूनतम समर्थन मूल्ये वृद्धिः कृतास्ति। विदेशमंत्री डॉ एस जयशंकरः उक्तवान् यत् सीम्नि प्रचाल्यमानाः आतंकवाद उग्रवाद पृथक्तावाद गतिविधयः व्यापारं जनानां मध्ये संपर्कं च अवरोधयन्ति। नेशनल कॉन्फ्रेंस दलस्य नेता उमर अब्दुल्लाह अद्य जम्मू कश्मीरस्य केन्द्रशासित प्रदेशस्य मुख्यमन्त्रिणः शपथग्रहणं कृतवान्। सर्वोच्च न्यायालयेन धान्यापशिष्ट दहन कारणेन जायमानं वायु प्रदूषणं निध्याय हरियाणा पंजाब प्रशासने आलोचिते। अपि च भारतस्य अखिल शूरनः अद्य ISSF विश्व लक्ष्यवेध चषक स्पर्धायां 50 मीटर राइफल 3P इति श्रेण्यां कांस्य पदकं विजितवान्। अथ वार्ताः विस्तरेण। केन्द्र प्रशासनेन आगामि विपणन सत्राय शीतकालिक सस्यानां एमएसपी इति न्यूनतम समर्थन मूल्ये वृद्धिः कृतास्ति। प्रधानमन्त्रिणः नरेन्द्र मोदिनः अध्यक्षतायां मन्त्रिमण्डलस्य उपवेशनम् अभवत्। उपवेशनस्य अनन्तरं सूचना प्रसारण मन्त्री अश्विनी वैष्णवः वार्ताहरान् मन्त्रिमण्डलस्य निर्णयानां विवरणम् अयच्छत्। राष्ट्रपतिः द्रौपदी मुर्मुः अद्य स्वीय यात्रायाः द्वितीये चरणे अल्जीरिया देशस्य यात्रायाः समापनानन्तरं मॉरिटानिया देशं प्राप्तवती। राष्ट्रपतिः मुर्मू स्वीय मॉरिटानिया देशस्य समकक्षेण मोहम्मद औलद गजौनी इत्यनेन सह अन्यै नेतृभिश्च सह द्विपक्षीय उपवेशनं करिष्यति। राष्ट्रपतिः मुर्मू मॉरिटानिया देशे भारतीय प्रवासिभिः सह अपि संवादं करिष्यति। विदेशमन्त्रालयेन उक्तं यत् राष्ट्रपतिः अल्जीरिया मॉरिटानिया मालावी त्रयाणां देशानां यात्रायाम् अस्ति। यात्रायाः तृतीये चरणे राष्ट्रपतिः श्वः मलावी देशं प्रति गमिष्यति। एतेषां राष्ट्राणां भ्रमणम् अफ्रीकादेशैः सह भारतस्य सम्बन्धं सुदृढं विस्तृतं च कर्तुम् अस्ति। विदेशमन्त्री डॉ एस जयशंकरः उक्तवान् यत् अर्थव्यवस्था विकासयोः कृते शान्तिः स्थिरता च आवश्यके स्तः। अनेन प्रत्यादिष्टं यत् सीम्नि प्रचाल्यमानाः आतंकवाद उग्रवाद पृथक्तावाद गतिविधयः व्यापारं जनानां मध्ये संवर्धमान सम्पर्कं च अवरोधयन्ति। अद्य पाकिस्तान देशस्य इस्लामाबाद नगरे संघाई सहयोग संघटनस्य शासनाध्यक्षाणां परिषदः 23वं उपवेशनं सम्बोधयन् असौ वार्ताम् इमां प्रकटितवान्। विदेशमन्त्रिणा अग्रे समुदीरितं यत् ऋतुदशायाः प्रतिकूल परिस्थितयः आपूर्ति श्रृंखलानाम् अनिश्चितताः वित्तीय अनियन्त्रणं च समग्रविश्वं पूर्वमेव प्रभावयन्ति। असौ पुनः प्रावोचत् यत् देशयोर्मध्ये सहयोगः पारस्परिक सम्मान सम्प्रभुता भौगोलिक अखण्डतायाश्च मान्यतायाम् आधारितो भवेदिति। श्रीजयशंकरः संघाई सहयोग संघटन व्यवस्थायां भारतेन विहित प्रयासानां महत्वमपि प्रतिपादितवान्। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। सर्वोच्च न्यायालयेन धान्यापशिष्ट दहन कारणेन जायमानं वायु प्रदूषणं निध्याय हरियाणा पंजाब प्रशासने आलोचिते। न्यायमूर्तेः अभय एस ओका इत्यस्य पीठेन अद्य वायु गुणवत्ता प्रबन्धनायोगः उल्लंघनकर्तृणः विरुध्य कार्याचरणे असमर्थान् हरियाणा पंजाबयोः प्रशासनाधिकारिणः विरुध्य दण्डात्मक कार्याचरणस्य निर्देशः प्रदत्तः। न्यायालयेन उल्लंघनकर्तृणः विरुध्य कार्याचरणाय साप्ताहिकावधिः प्रदत्ता। सममेव हरियाणायाः पंजाबस्य च मुख्य सचिवाभ्यां समनपत्रं प्रेषितं यस्मिन् अक्टूबर वारत्रयोविंश्याम् न्यायालये उपस्थातुं निर्देशः प्रदत्तः। नेशनल कॉन्फ्रेंस दलस्य नेता उमर अब्दुल्लाह अद्य जम्मू कश्मीरस्य केन्द्रशासित प्रदेशस्य मुख्यमन्त्रिणः शपथग्रहणं कृतवान्। उपराज्यपालः मनोज सिन्हा श्रीनगरस्य शेरे कश्मीर अन्ताराष्ट्रिय सम्मेलन केन्द्रे प्रातः सार्ध एकादश वादने उमर अब्दुल्लाह इत्यस्मै मन्त्रिपरिषदा सह शपथवचनं प्रतिज्ञापितवान्। नेशनल कॉन्फ्रेंस दलस्य वरिष्ठो नेता सुरिन्दर चौधरी उपमुख्यमंत्री पदस्य सकीना ईटू जावेद राणा जावेद डार सतीश शर्मा च मंत्रीरूपेण शपथग्रहणं स्वीकृतवन्तः। अत्रावसरे कांग्रेस अध्यक्षः मल्लिकार्जुन खड़गे लोकसभायां विपक्षस्य नेता राहुल गांधी सपा दलस्य अध्यक्षः अखिलेश यादवः जम्मू कश्मीरस्य पूर्व मुख्यमंत्री महबूबा मुफ्ती भाजपा दलस्य नेतारः अपि शपथग्रहणे सम्मिलिताः अभवन्। प्रधानमंत्री नरेन्द्र मोदी जम्मू कश्मीरस्य नवनिर्वाचिताय मुख्यमंत्रिणे अमर अब्दुल्लाह इत्यस्मै शुभकामनाः अयच्छत्। अद्य एकस्मिन् सामाजिक संचार पटले प्रधानमन्त्रिणा जनानां कृते विहित प्रयासेभ्यः उमर अब्दुल्लाह इत्यस्मै शुभकामनाः प्रदत्ताः। प्रधानमन्त्री अग्रे प्रोक्तवान् यत् केन्द्र प्रशासनं जम्मू कश्मीरस्य प्रगतये श्री अब्दुल्लाह इत्यमुना सह मिलित्वा कार्यम् आचरिष्यति। हरियाणायाः कार्यवाहक मुख्यमंत्री नायब सिंह सैनी विधायक दलस्य नेता चितः। वरिष्ठ विधायकाभ्याम् अनिल विज कृष्णकुमार बेदी इत्येताभ्याम् मुख्यमन्त्रित्वेन नायब सिंह सैनी इत्यस्य नाम प्रस्तावितः। भाजपादलेन विधानसभा निर्वाचने नायब सिंह सैनी इत्यसौ मुख्यमंत्री प्रत्याशित्वेन घोषितः। भाजपादलस्य हरियाणा पर्यवेक्षकेण केन्द्रीय गृहमन्त्रिणा अमितशाहेन अद्य पंचकुलायां भाजपा कार्यालये विधायकदलस्य उपवेशनानन्तरम् एतत् उद्घोषितम्।
हरियाणा नए चुने हुए विधायक दल की बैठक हुई, उसमें सर्वानुमत एक ही प्रस्ताव मिला है जो किशन कुमार बेदी जी और अनिल विज जी ने रखा। हमारे पूर्व मुख्यमंत्री नायब सिंह जी को विधायक दल के नेता के रूप में चुना हुआ घोषित करता है।
नायब सिंह सैनी भाजपा विधायक दलेन सह राज्यपालेन बंडारू दत्तात्रेय इत्यनेन सह मिलित्वा राज्य प्रशासन विरचनस्य प्रस्तावम् उपस्थापयिष्यति। शपथग्रहण समारोहः श्वः पंचकुलायाः शालीमार प्रांगणे आयोजयिष्यते। केन्द्रीय वित्तमन्त्री निर्मला सीतारमणः अद्य मेक्सिको अमेरिका देशयोः यात्रार्थं गमिष्यति। यात्रायाः प्रथमे चरणे अस्य मासस्य सप्तदश दिनात् विंशतिः दिनांकं यावत् वित्तमन्त्री मेक्सिको देशस्य सिलिकॉन वैली इत्यत्र टेक लीडर्स राउंड टेबल इति सम्मेलनस्य अध्यक्षतां करिष्यति। श्रीमती सीतारमणः मेक्सिको देशस्य वित्तमन्त्रिणा रोजोलिया रामीरेज डेलाओ इत्यनेन सह द्विपक्षीयोपवेशनमपि करिष्यति। वित्तमन्त्री निर्मला सीतारमणः संसदीय सहयोगं वर्धितुम् आर्थिक विकासं च समेधितुं मेक्सिको देशस्य संसत्सदस्यैः सह चर्चा अपि करिष्यति। मेक्सिको नगरे श्रीमती सीतारमणः भारत मेक्सिको व्यापार निवेश शिखर सम्मेलने मुख्योद्बोधनं प्रदास्यति। अस्मिन् आयोजने देशद्वयस्य मुख्योद्योगपतयः सहभागं करिष्यन्ति। वित्तमंत्री भारतीय प्रवासिनां एकस्मिन् सामुदायिक कार्यक्रमे अपि भागं भजिष्यति। केन्द्रीय संचार मंत्री ज्योतिरादित्य सिंधिया अद्य अकथयत् यत् सकल विश्वस्य समग्र आंकिकीय विनिमयस्य 44% अंशाः भारते भवन्तीति। अद्य नवदिल्ल्यां भारत मण्डप स्थानके अन्ताराष्ट्रिय 6G इत्येतस्य सम्मेलनस्य उद्घाटनिकं सत्रं श्री सिंधिया सम्बोधितवान्। भारतस्य अखिल श्योरनः अद्य ISF विश्व लक्ष्यवेद चषक स्पर्धायां 50 मीटर राइफल 3P इति श्रेण्यां कांस्य पदकं विजितवान्। नवदिल्ल्याम् आयोज्यमानायां श्रृंखलायाम् एतत् हि भारतस्य द्वितीयं पदकं वर्तते इति वार्ताः।